त्वं महां इन्द्रजोहशुष्पैर्द्यावा जग्नादः पृथिवी अमेधाः यद्धते विश्वा गिरजश्चिदभ्वाभिजा दृह्लासः किरणानैजन् आयद्धरी इन्द्रविव्रता वेराते वज्रम् जरिता बाह्वोर्धात् येना विहर्यत क्रतो अमित्रान् पुर इष्टासि पुरोहोत पूर्वीः त्वं सत्य इन्द्रधृष्णुरेतान् त्वं प्रभुक्षानर्यस्त्वं षोट् त्वं शुष्णम् वृजने वृक्ष आणौ यो ने कुत्सा यद्युमते स चाहन् त्वं हत्यदिन्द्रचोदीः सखा वृत्रयद्वज्रन्मृषकर्मन्नुभ्नाः यद्धशूरवृषपणः परा चैर्विदस्योङ्ग्रियो नापकृतो वृथा षाट् त्वं हत्यदिन्द्रारिषण्यन् दृढस्य चिन्मर्ता नामजुष्टौ व्या अस्मदाकाष्ठा अर्वते वर्घनेव वज्रेच्छ्रथे ह्यमित्रान् त्वां हत्यदिन्द्रार्णसातौ स्वर्मेळ्हे नर आजाहवन्ते तव स्वधाव इयवासमर्य ऊतिर्वाजेष्वतसाय्या अभूत् त्वं हत्यदिन्द्रसप्तयोध्यन् पुरा वज्रन्पुरगुत्सा यदर्दः बर्हिर्न यत्सुदासे वृथा वर्गम् होरा जन्वरिवः पूरवेकः सन्ध्यान्न इन्द्रदेव चित्रामिषमापो न पीपजः परिज्मन् यजाशोरप्रत्यस्मभ्यञ्जम् सत्मनमोर्जन्न विश्वधक्षरध्यै अकारित इन्द्रगोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् सुपेश संवाजमाभरानः प्रातर्भक्षोधिजावसर्जगम्यात्